निषिद्धैरप्येभिर्लुलितमकरन्दो मधुकरैः करैरिन्दोरन्तश्चुरितैव सम्भिन्नमुकुलः विधत्तां सिद्धिं नो नयनसुभगामस्य सदसः प्रकीर्णः पुष्पाणां हरिचरणयोः अञ्जलिरयम्। वेणीसंहारस्य तृतीय अङ्कात् आरभ्यते। पूर्वम् अङ्कद्वयम् अस्ति, तत्र अभिमन्योः मृतेः परं संवृत्ताः विषयाः सन्ति। द्रोणाचार्यः तदा सेनापतिः आसीत्। द्वितीय अङ्के द्रोणाचार्यस्य मरणं सूच्यते। दुर्योधनः बहुविधानि दुःशकुनानि पश्यति स्म। सूर्यास्तमनात् पूर्वमेव जयद्रथस्य वधः अपि क्रियते अर्जुनेन। एवं अर्जुनः जयद्रथं मारितवान् इति वार्ता श्रूयते, किन्तु दुर्योधनः सान्त्वनं करोति स्म, न एतत् एतादृशं न स्याद् इति। तत्र द्वितीय अङ्कस्य समाप्तिः। तृतीय अङ्कस्य आरम्भे प्रवेशकः। द्रोणाचार्यस्य वधः अपि अभवत्, किन्तु अश्वत्थामा पितुः मरणं न जानाति स्म। अत्रैव अश्वत्थामा जानाति स्म स्वपितुः मरणवार्ताम्। ततः आरभ्यते। आरम्भे काचित् राक्षसी प्रविशति स्म। युद्धक्षेत्रम् इति कारणेन मांसं रक्तम् इति राक्षसानां प्रियतमं वस्तु बहु लभ्यते, तस्मात् राक्षसी महता हर्षेण नृत्यति स्म। अत्र आरभ्यते तृतीयो अङ्कः। ततः प्रविशति विकृतवेषा राक्षसी। काचित् राक्षसी विकारं वेषं धृत्वा प्रविशति। राक्षसी विकृतं विहस्य सपरितोषम्। सा राक्षसी विकारेण हसति स्म सपरितोषं, सन्तोषसहितं ससन्तोषं सा वदति। किं वदति? हत मानुष मांसशोनितैः कुम्भसहस्रं वसाभिः सञ्चितम् अनिशं च पिबामि शोनितं समरं वर्षशतं भवतु। तस्मिन्नेव दिने जयद्रथस्य वधः अभवत् इति। महान् सङ्ग्रामः जातः। अर्जुनः महता कोपेन जयद्रथेन सह युद्धं कृत्वा सैनिकान् सर्वान् अपवार्य जयद्रथेन सह युद्धं कृत्वा वधम् अपि कृतवान् इति ज्ञायते। हत मानुष मांसशोनितैः, हत मारित, मानुष मनुष्य, सो मारितानां मनुष्यानां मांसं शोणितं, शोणितम् इत्युक्ते रक्तम् इति अर्थः। सो मांस एः वसाभिः इत्युक्ते तस्मात् मृतशरीरात् यत् फ्लेश् आगच्छति तदेव वसा इति उच्यते। तैः वसाभिः सञ्चितं कुम्भसहस्रं, सहस्रं कुम्भपूर्णम् अहं सङ्ग्रहणं कृतवती अस्मि। अनिशं प्रतिदिनं शोनितं पिबामि, रक्तं पिबामि, समरः वर्षशतं भवतु, शतं वर्षाणि एतादृशं युद्धं भवतु इति प्रार्थयते स्म सा राक्षसी, कारणं तस्याः भोजनं लभ्यते इति। हत मानुष मांसशोनितैः, युद्धे मृत मनुष्य मां पलल रुधिरैः, पललम् इत्युक्ते मांसम् इत्यर्थः, रुधिरं रक्तं शोणितम्, वसाभिः मेदोभिः कुम्भसहस्रं सहस्रसङ्ख्याकघटाः सञ्चितम् उपचितम्, अस्माभिरिति शेषः शोणितं रुधिरम् अनिशं सततं पिबामि च अहम् इति शेषः। समरः युद्धं वर्षशतं शतं वर्षाणि भवतु इति प्रार्थयते स्म सराक्षिसी। अग्रे नृत्यन्ती सपरितोषं, सराक्षसी सन्तोषेण नृत्यन्ती च वदति, यदि सिन्धुराजवधदिवसः इव दिवसे दिवसे समरकर्म प्रतिपद्यते, अर्जुनः ततः पर्याप्तभरितकोष्ठाघारं मांसशोणितैः मे गृहं भविष्यति। सिन्धुराजवधदिवसः इव सिन्धुराजमरणदिनम् इव जयद्रथस्य मरणदिनम् इव प्रतिदिनं दिने दिने अर्जुनः यदि प्रतिपद्यते यदि करोति चेत् ततः सम्पूर्णमपि मम गृहं मांसैः शोणितैः पूर्णं भविष्यति इति। कोष्ठागारम् इति पदस्य ग्राण्ड्री इति अर्थः। यदि सिन्धुराजवधदिवसः इव सिन्धुराजः सिन्धुराजः इति जयद्रथः, जयद्रथस्य वधः यस्मिन् दिने अभवत् तद्दिनम् इव प्रतिदिनम् अर्जुनः समरकर्म प्रतिपद्यते चेत्, यदि अर्जुनः युद्धं करोति चेत्, मरणं करोति कारयति चेत्, अर्जुनः करोति चेत् ततः तस्मात् मे गृहं मांसैः शोणितैः रुधिरैः मम गृहं, कीदृशं गृहं, पर्याप्तभरितकोष्ठागारं, कोष्ठागारम् इति स्थलं तु यत्र धनधान्यानां रक्षणं क्रियते, सः कोष्ठागारः इति उच्यते। तत् कोष्ठागारं मम गृहं पूर्णं भविष्यति। एवं मांसशोणितैः मम पर्याप्तभरितकोष्ठागारं, यथेष्टं मम कोष्ठागारं पूर्णं भविष्यति इति। अनन्तरं परिक्रम्य दिशः अवलोक्य, एकवारं परितः चलित्वा दिशः दृष्ट्वा वदति, अथ क्व खलु गतो मे रुधिरप्रियो भविष्यति, तद्यावत् अस्मिन् समरे प्रियभर्तारं रुधिरप्रियम् अन्विष्ये। भवतो शब्दायिष्ये तावत्। अरे रुधिरप्रिय, रुधिरप्रिय, इत एहि, एतेषां नामानि पश्यन्ति चेत् अन्वर्थनामानि भवन्ति। तस्य नाम रुधिरप्रियः इति, तस्य राक्षसस्य नाम रुधिरप्रियः इति। कुत्र गतवान् सः? अस्तु, अहं शब्दायिष्ये नाम अहं तम् आह्वयामि इति उक्त्वा, हे रुधिरप्रिय, रुधिरप्रिय इति उच्चैः उक्त्वा, इत एहि, अत्र आगच्छतु इति वदति। ततः प्रविशति तथाविधो राक्षसः। इदानीं राक्षसः श्रमं नाटयन् महान्तं श्रमम् अनुभवति स्म राक्षसः। एवम् अतः बहु श्रमं नाटयन् वदति, प्रत्यग्रहतानां मांसं यद् उष्णं रुधिरं च लभ्येत, तद् एषः मम परिश्रमः क्षणमात्रमेव लघु नश्येत्। प्रत्यग्रहतानाम् इत्युक्ते इदानीमेव मारितानां, प्रत्यग्रहतानां मांसं यदि उष्णं रुधिरं च लभ्येत, मांसं यदि उष्णं रुधिरं, रुधिरं तु सर्वदा फ्रेश्, रक्तं सर्वदा कदुष्णं भवति, किञ्चित् ईषद् उष्णं तु सर्वदा भवत्येव। एषः मम परिश्रमः, मम अयं परिश्रमः, दिस् फटीग्, क्षणमात्रमेव लघु नश्येत्, नाम क्षणमात्रम् इत्युक्ते अल्पकालेन, क्षणेन एव लघु नश्येत्, न्यूनं भविष्यति इति अर्थः। मम परिश्रमः न्यूनः भविष्यति इति. व्याख्यां पठामः. प्रत्यग्रहतानां, प्रत्यग्रं सद्यः, हताः मारिताः, तेषां मांसं पललं च तथा उष्णं तप्तं रुधिरं रक्तं लभ्येत प्राप्येत तदा तस्मिन्नवसरे मम मे एषः अयं परिश्रमः श्रान्तिः क्षणमात्रमेव अल्पेन एव कालेन लघु द्रुतम् अथवा शीघ्रं नश्येत् नष्टः भवेत्. राक्षसी पुनः व्याहरति, नाम पुनः आह्वयति. पुनः व्याहरति इत्युक्ते पूर्वं यथा सा अरे रुधिरप्रिया रुधिरप्रिया इतयेः इति उक्तवती, तद् इदानीं पुनः श्रूयते इति अर्थः. इदानीं राक्षसः आकर्ण्य श्रुत्वा, अरे का एषा मां शब्दायते, का माम् आह्वयति, कथं प्रिया मे वसागन्धा, ओ मे मम प्रिया वसागन्धा माम् आह्वयति, वसागन्धे कस्मान् मां शब्दायते, हे वसागन्धे किमर्थं माम् आह्वयसि इति पृच्छति. रुधिर आसव पान मत्ते अथवा मत्तिके, रणहिण्डनस्खलद्गात्री अथवा रणहिण्डनस्खलद्गात्रिके, शब्दायसे कस्मान् मां प्रिये पुरुषसहस्रं हतं श्रूयते. अर्थात् किमर्थं माम् आह्वयसि, शब्दायसे नाम माम् आह्वयसि. अत्र पुरुषसहस्रं हतं श्रूयते नाम हतं पुरुष सहस्रं पुरुषाः अत्र मारिताः इति श्रूयते. तव भोजनार्थं तु क्लेशः न स्यात्, किमर्थं माम् आह्वयसि इति पृच्छति. तस्याः प्रियायाः विशेषणद्वयं, प्रिय इति शब्दस्य विशेषणद्वयम् अत्र अस्ति, रुधिर आसव पान मत्ते. रुधिर आसवपानमत्तिके, रुधिरम् एव राक्षसाणाम् आसवपानं भवति. आसवपानम् इत्युक्ते मद्यपानम् इति अर्थः, कळ्ळ् इति वदामः. सो रुधिरम् एव आसवपानं, तेन आसवपानेन मत्ता अस्ति, मत्ता नाम मोहिता अस्ति अथवा मदयुक्ता अस्ति. रणहिण्डनस्खलत् गात्रिके, रण इत्युक्ते युद्धं, हिण्डन इत्युक्ते भ्रमणं, नाम युद्धे भ्रमणं कृत्वा कृत्वा स्खलत् गात्रम् अस्ति तस्याः. स्खलद् नाम किञ्चित् श्रान्तं गात्रं यस्य अस्ति, सा स्खलद् गात्रिका भवति. युद्धक्षेत्रे सम्यक् इतस्ततः चलित्वा चलित्वा रुधिरं पीत्वा, रुधिरमेव तेषाम् आसवपानम् मद्यपानम् अस्ति, तद् पीत्वा किञ्चित् मदयुक्ता अस्ति सा. युद्धक्षेत्रे भ्रमितत्वात् किञ्चित् शरीरमपि किञ्चित् स्खलत् शरीरमस्ति तस्याः. तादृशे प्रिये कस्मात् किमर्थं मां शब्दायसे आह्वयसि, हे प्रिये किमर्थं मां शब्दायसे, किमर्थं माम् आह्वयसि. पुरुषसहस्रं हतं श्रूयते, अहं श्रुतवान् अस्मि सहस्रं पुरुषाः अत्र मारिताः सन्ति इति. एवं चेत् भवत्याः भोजनस्य समस्यापि न भवेत् किल, तर्हि किमर्थं मां शब्दायसे इति पृच्छति. व्याख्यां पठामः. रुधिर आसवपानमत्तिके, रुधिरम् एव आसवः, तस्य पानेन मत्ता, तत्सम्बुद्धौ अयि लोहित मद्यपान उन्मत्ते. रणहिण्डनस्खलद्गात्रिके, रणे समरे हिण्डनेन चिरं भ्रमणेन स्खलत् गात्रं शरीरः यस्याः सा तत्सम्बुद्धौ. பிரியே பிரேயசி கஸ்மாத் கஸ்மாத்து காரணாத் மாம் பிரியம் சப்தாயசே ஆஹ்வயசி புருஷ சஹஸ்ரஸ்ய புருஷானாம் மாணவானாம் சஹஸ்ரம் தச சத சங்க்யாகஹ சமுதாயஹ ஹதம் மாரிதம் ஸ்ருயதே ஆகர்ண்யதே. இதானிம் ராட்சசீ வததி, அரே ருதிரப்ரிய, இதம் கலு மயா தவ காரணாத் பிரத்யக்ரஹதஸ்ய கஸ்யபி கஸ்யாபி ராஜர்ஷேஹே ஷரீர அவயவ ஹ்ருதம் பிரபூத வசாஸ்னிக்தம் கோஷ்ணம் நவ ருதிரம் அக்ரமாம்சம் ச ஆனீதம் தத் பிப ஏதத். அரே ருதிரப்ரிய, இதம் ஏதத் மயா ஆனீதம், ஏதத் மயா ஆனீதம், கிமர்த்தம் தவ காரணாத் நம பவதாஹ கிருதே மயா ஆனீதம், கிம் ஆனீதம், கஸ்யாபி ராஜரிஷேஹே கஸ்யசித் ராஜரிஷேஹே பிரபூத வசா ஸ்னேஹ சிக்கனம், பிரபூத வசா ஸ்னேஹ சிக்கனம் இத்துக்தே அத்தியதிக வசா இத்துக்தே மேதஸ், மேதசாம் ஸ்னேஹா, ஸ்னேஹா இத்துக்தே ஆயிலினஸ் இதி அர்த்தா, சிக்கனம் ஸ்னிக்தம் இதி அர்த்தா, ஏவம் அத்தியதிக மேதசாம் ஸ்னேஹ சிக்கனம் கோஷ்ணம் ததபி கோஷ்ணம் இத்துக்தே கதுஷ்ணம் ஈஷதுஷ்ணம் இதி அர்த்தா, கோஷ்ணம் கதுஷ்ணம் கிமர்த்தம் இத்துக்தே இதானிமேவ பிராப்தம் இதி காரணாத் கதுஷ்ணம் அஸ்தி நவ ருதிரம் ஃப்ரெஷ் ரத்தம் அக்ரமாம்சம், அக்ரமாம்சம் இத்துக்தே உத்தமம் மாம்சம் இதி அர்த்தா, அக்ரமாம்சம் ச ஆனீதம் தத் பிப ஏதத் தஸ்மாத் பிபத்து ஏதத் ரத்தம் பிபத்து இதி வததி. இதானிம் ராட்சஸஹா ச பரிதோஷம் நம்ம சந்தோஷ சகிதம் வததி, ஹே வசாகந்தே சுஷ்டு சோபனம் த்வயா கிருதம் பலவத் அஸ்மி பிபாசிதா தது உபநய, சோபனம் த்வயா கிருதம் இத்துக்தே பவதி உத்தமம் காரியம் கிருத்தவதி அஸ்தி, பலவத் பிபாசிதா அஸ்மி அத்தியதிகம் பிபாசையா அஹம் பீடிதா அஸ்மி தது உபநய ஆனயது இதி. இதானிம் ராட்சசீ வததி, அரே ருதிரப்ரிய, ஈதிருஷே அபி நாம ஹத நர கஜ துரங்கம சோனித வசா சமுத்ர துஸ்ஸஞ்சரே சமரே பரிப்ரமன்ஸ்த்வம் பிபாசிதோ அசி இதி ஆச்சரியம். நாம ஹே ருதிரப்ரிய, ஈதிருஷே அபி சமரே நாம ஏதாதிருஷே யுத்தக்ஷேத்ரே பவான் பரிப்ரமன் அஸ்தி ததாபி பிபாசிதா அஸ்தி பவான் இதி மம ஆச்சரியம் ஜனயதி இதி வததி ராட்சசி. கீதிருஷே சமரே இத்தியஸ்ய விசேஷணம் ஹத நர கஜ துரங்கம சோனித வசா சமுத்ர துஸ்ஸஞ்சரே, ஹத மாரித நர மனுஷ்ய கஜ துரங்கம அஸ்வஹா தேஷாம் சோனிதம் ரத்தம் வசா மாம்சம் ஏவம் சோனிதம் மாம்சமேவ சமுத்ரஹா பவதி, கீதிருஷா சமுத்ரஹா துஸ்ஸஞ்சரஹ சமுத்ரஹா நாம சரளதையா சரிதும் அசக்யஹ சமுத்ரஹா பவதி, தாதிருஷே யுத்தக்ஷேத்ரே பவான் பரிப்ரமன் அஸ்தி பரிப்ரமன் பரிப்ரமன் பவான் பிபாசிதா அபி அஸ்தி நாம பிபாசிதா நாம ஜல பிபாசையா பீடிதா அபி அஸ்தி இதி மகத் ஆச்சரியம் அஸ்தி மம. இதானிம் ராட்சசா, அயி சுஸ்திதே நனு புத்ரசோக சந்தப்த ஹ்ருதயாம் ஸ்வாமினீம் ஹிடிம்பா தேவீம் பிரேக்ஷிதும் கதாஹ அஸ்மி. இதானிம் சஹ வததி அஹம் ஹிடிம்பினீம் ஹிடிம்பா தேவீம் பிரேக்ஷிதும் கதாஹ அஸ்மி இதி, சா புத்ரசோக சந்தப்த ஹ்ருதயா அஸ்தி இதி உக்தத்வாத் கடோத்கச்சஸ்ய அபி மரணம் ஜாதம் இதி ஞாயதே. पुत्र घटोत्कच शोक संतप्त हृदयाम् पुत्रः घटोत्कचः तस्य मरणेन शोक संतप्त शोके शोकस्य शोकेन संतप्त हृदया अस्ति नाम दुःखेन पीडित हृदया अस्ति मम स्वामिनी हिडिम्बादेवीं देवी ताम प्रेक्षितुम् ताम अहम् द्रष्टुम् गतः अस्मि अहम् गतवान् आसम् इति वदति। अत्र प्रकृतम् विषयं प्रति अस्मान् आनेतुम् नाम कॉन्टेक्स्ट् प्रति अस्मान् आनेतुम् किञ्चित् पूर्वं यद् अभवत् तदपि अत्र उच्यते। घटोत्कचस्य मरणं किञ्चित् पूर्वं जातम् इति अनेन ज्ञायते। तदेव प्रवेशकस्य वैशिष्ट्यम् अस्ति। राक्षसी रुधिरप्रिय अद्यापि स्वामिन्या हिडिम्बादेव्या घटोत्कच शोको न उपशाम्यति इदानीमपि तस्याः शोकः न व्यपगतः किम् इति पृच्छति। अद्यापि इदानीमपि स्वामिन्या हिडिम्बादेव्या अस्माकं यजमान्या हिडिम्बादेव्या घटोद्गजशोकः घटोद्गज मरणविषये विद्यमानः शोकः न उपशाम्यति न गतः न शमितः किम्। राक्षसः वसागन्धे कुतो अस्याः उपशमः केवलम् अभिमन्युशोकसमानदुःखया सुभद्रादेव्या याज्ञसेन्या च कथं कथमपि समाश्वास्यते। कुतो अस्याः उपशमः इत्युक्ते कथं तस्याः शोकस्य शान्तिः भवति। सुभद्रा याज्ञसेन्या इति द्रौपदी सुभद्रा द्रौपदी च तां कथं कथमपि समाश्वास्यते। तां हिडिम्बादेवीं केनापि बहुप्रकारेण आश्वासयितुं प्रयत्नं करोति एव तथापि तस्याः शोकस्य उपशमः न इति। कीदृशी सुभद्रा इत्युक्ते अभिमन्यु शोकसमानदुःखया सुभद्रा देव्या अभिमन्योः मरणं जातमिति कारणेन सा अपि पुत्रशोकेन सन्तप्ता अस्ति सुभद्रा। यथा हिडिम्बादेवी इदानीं सन्तप्तहृदया अस्ति तथा एव सुभद्रादेवी अपि सन्तप्तहृदया अस्ति स्वपुत्रस्य मरणेन। राक्षसी रुधिरप्रिय गृहाण एतद् हस्तिशिरः कपालसञ्चितम् अग्रमांस उपदंशम् पिब शोणित आसवम् इदम् एतत् उपदंशं गृहाण शोणित आसवं पिब। उपदंशम् इत्युक्ते भोजनस्य सैड् डिश् इति वदामः किल व्यञ्जनादिकं तदेव उपदंशम् इति उच्यते। अत्र उपदंशं किम् इत्युक्ते हस्ति शिरः कपाल सञ्चितम् अग्रमांसमेव अत्र उपदंशं भवति। हस्ति इत्युक्ते गजः गजस्य शिरः कपाल मस्तककपालप्रदेशात् सञ्चितं यत् अग्रमांसं फ्रेश् मांसम् अस्ति तदेव उपदंशम् अस्ति। तद् गृहाण भवा त्वं गृहाण शोणित आसं रक्तम् एव अत्र मद्यपानमिति पूर्वमपि दृष्टवन्तः रक्तरूपेण विद्यमानं मद्यपानमपि पिब। राक्षसः असागन्धे अथ कियत् प्रभूतं त्वया सञ्चितं रुधिरम् अग्रमांसं च। राक्षसः राक्षसीं पृच्छति हे वसागन्धे कियत् प्रभूतं त्वया अत्यधिकं त्वया सञ्चितमस्ति रुधिरम् अग्रमांसं च एतत् कथं साध्यमासीत् इति। राक्षसी अरे रुधिरप्रिय पूर्वसञ्चितं त्वमपि जानासि एव नवसञ्चितं शृणु तावत् इति। पूर्वं मया यत् संगृहीतं सञ्चितं तत्सर्वं भवान् जानाति एव नवसञ्चितं शृणु तावत् इदानीम् अहं यत् यत् संगृहीतवती तद् कथम् इति अहं वदामि भवान् शृणोतु इति उक्त्वा वदति। भगदत्तशोणितैः कुम्भः सिन्धुराजवसाभिः कुम्भौ द्वौ द्रुपदमस्त्याधिपभूरिश्रवः सोमदत्त ता बाह्वीक प्रमुखानां नरेन्द्राणाम् अन्येषामपि प्राकृतपुरुषाणां रुधिरमांसस्य घटाः अभिनद्धमुखाः सहस्रसङ्ख्याः सन्ति मे गेहे. बहूनां नरेन्द्राणां शोणितं मांसं च सङ्गृह्य सा राक्षसी घटाः अभिनद्धमुखाः घटाः सन्ति मे गृहे इति वदति. अपिनद्धमुखाः इत्युक्ते ओवर्फ्लोयिङ्ग् घटाः. अत्र किमर्थम् एतत् सर्वम् उच्यते इत्युक्ते के मरणं प्राप्तवन्तः पूर्वम् इति सर्वान् ज्ञापयितुमेव एतत् सर्वम् उक्तमस्ति. भगवदत्त इति कश्चित् राजा, तस्य शोणितैः तस्य रक्तैः कुम्भः एकः, कुम्भः इति अस्ति तद् एकः कुम्भः इति अर्थः. अनन्तरं सिन्धुराजस्य वसाभिः मांसं मांसैः कुम्भौ द्वौ कुम्भौ. द्रुपद मत्स्याधिप भूरिश्रवः. द्रुपदः मत्स्याधिपः इति उत्तरः नाम विराटराजस्य पुत्रः. अनन्तरं भूरिश्रवस् एतस्य राज्ञः भ्रुवोः केशाः नाम ऐब्रो हेर् इति उच्यते किल, तद् बहु दीर्घम् भवति. तत्सर्वं सः पृष्ठतः बध्नाति स्म, तावत् दीर्घाः ऐब्रो हेर् भवन्ति तस्य. तद् कर्तयन्ति शत्रवः युद्धसमये. दुर्योधनस्य पक्षे एषः युद्धं करोति स्म, तस्य केशं कर्तयन्ति, तस्मात् तस्य नेत्रदृष्टिः पिनद्धा भवति, अतः तं मारयन्ति शत्रवः इति ज्ञायते. सोमदत्त बाह्लीकप्रमुखानां नरेन्द्राणाम् अन्येषामपि प्राकृतपुरुषाणाम् एवम् एतादृशाणाम् अन्यराजानां प्राकृतपुरुषाणां नाम पदातयः ये सन्ति तेषामपि रुधिरेण मांसैः च रुधिरमांसैः घटाः अपिनद्धमुखाः सहस्रसङ्ख्याः सन्ति. तेषां रुधिरमांसैः पूरिताः नाम अपिनद्धमुखाः इत्युक्ते अत्यधिकं पूरिताः, ओवर्फ्लोयिङ्ग् घटाः इति वदामः. सहस्रसङ्ख्यकाः सहस्रघटाः अत्र गृहे सन्ति इति वदति. राक्षसः सपरितोषम् आलिङ्ग्य सन्तोषसहितं ताम् आलिङ्ग्य वदति, साधु सुगृहिणी साधु, अनेन ते सुगृहिणीत्वेन अद्य स्वामिन्या हिडिम्बादेव्याः संविधानेन प्रणष्टं मे जन्मदारिद्र्यम्. अनेन सुगृहिणीत्वेन भवती अद्य उत्तमा गृहिणी इति प्रदर्शितवती अस्ति, अतः गृहिणीत्वं वर्तते भवत्याम्. तेन गृहिणीत्वेन अद्य ततोपि स्वामिन्या हिडिम्बादेव्याः संविधानेन, संविधानम् इति पदस्य अत्र आज्ञा इति स्वीकरणीयम् अस्ति. हिडिम्बादेव्याः आज्ञा अस्ति यत् घटोत्कचस्य वधात् परं भवान् भीमसेनस्य पृष्ठतः एव गच्छतु, यत्र यत्र सः गच्छति तस्य पृष्ठतः एव भवान् गच्छतु इति हिडिम्बादेव्या आज्ञापितः अस्ति अयं राक्षसः रुधिरप्रियः. तस्मात् तस्य सन्तोषः अस्ति, कारणं यदि स्वामिनी आज्ञां दत्तवती स्यात् तर्हि अग्रे पारितोषिकमपि लभ्येत इति कारणात्. एवं तया आज्ञया तेन संविधानेन मम जन्मदारिद्र्यम् अतः प्रणष्टं भवति, कारणं पारितोषिकादिकं लभ्यते इति कारणात् मम जन्मदारिद्र्यं पूर्णतया नष्टमस्ति इति. राक्षसी रुधिरप्रिया कीदृशं स्वामिन्या संविधानं कृतं पृच्छति. संविधानं नाम कीदृशम् अरेञ्ज्मेण्ट् त्वया कृतम् इति. राक्षसः वसागन्धे अद्य अहं स्वामिन्या हिडिम्बादेव्या सबहुमानम् आहूय आज्ञप्तः यथा, हे वसागन्धे अद्य स्वामिन्या हिडिम्बादेव्या अहम् आज्ञप्तः, स्वामी हिडिम्बादेवी मम आज्ञां दत्तवती अस्ति। सा आज्ञा का इत्युक्ते, रुधिरप्रिय, अद्य प्रभृति त्वया आर्यपुत्र भीमसेनस्य पृष्ठतो अनुपृष्ठं समर आहिण्ड्यतव्यम् इति। अद्य प्रभृति, अद्य आरभ्य त्वया रुधिरप्रियेण, त्वया रुधिरप्रियेण आर्यपुत्र भीमसेनस्य, आर्यपुत्रस्य भीमसेनस्य पृष्ठतो अनुपृष्ठं नाम तस्य पश्चात् एव, तस्य पृष्ठतः एव समरे आहिण्डितव्यं, समरे भ्रमितव्यम् इति। समरे अस्मिन् युद्धे भवता तस्य पृष्ठतः एव गन्तव्यम् इति। तत्तस्य अनुमार्गगामिनः हतमानुषशोणितनदीदर्शनप्रणष्टबुभुक्षापिपासस्य इह एव मे स्वर्गलोको भविष्यति। तत् तस्मात् तस्य अनुमार्गगामिनः, तस्य नाम भीमसेनस्य मार्गम् अनुसरन् अहं गच्छामि, तादृशस्य मम हतमानुषशोणितनदीदर्शन, मारितानां मनुष्यानां शोणितमेव नदीवत् प्रवहति तत्र, तादृश्याः नद्याः दर्शनेन प्रणष्टबुभुक्षा पिपासा, मम बुभुक्षा अपि प्रणष्टा भविष्यति, मम पिपासा अपि प्रणष्टा भविष्यति। इह एव, अत्र एव, अस्यां युद्धं युद्धभूम्यामेव मम स्वर्गलोकः भविष्यति, मम स्वर्गलोकः जायते। त्वमपि विस्रब्धा भूत्वा रुधिरवसाभिः कुम्भसहस्रं सञ्चिनो, सञ्चिनो नाम सङ्गृह्णातु इति। त्वमपि, भवती अपि विस्रब्धा भूत्वा, निःशङ्कं, चिन्तां विना रुधिरवसाभिः, रुधिरैः मांसैः च कुम्भसहस्रं, सहस्र कुम्भपूर्णं पूरयतु। राक्षसी इदानीं पृच्छति, रुधिरप्रिय, किं निमित्तं कुमार भीमसेनस्य पृष्ठतः आहिण्ड्यते? किमर्थं, किं निमित्तं, किमर्थं कुमार भीमसेनस्य पृष्ठतः, भीमसेनस्य पृष्ठतः एव भ्रमितव्यम् इति राक्षस्याः सन्देहं, सन्देहः अस्ति, पृच्छति। राक्षसः, राक्षसः वसागन्धे तेन हि स्वामिना वृकोदरेण दुःशासनस्य रुधिरं पातुं प्रतिज्ञातं, तच्च अस्माभिः राक्षसैः अनुप्रविश्य पातव्यम्। स्वामिना वृकोदरः, वृकोदरः भीमः, भीमसेनः तु दुःशासनस्य रुधिरं पातुं प्रतिज्ञां स्वीकृतवान् अस्ति। दुःशासनस्य रुधिरं भीमसेनेन प्रतिज्ञातम् अस्ति, तस्मात् अस्माभिः राक्षसैः, वयं राक्षसाः अपि अनुप्रविश्य भीमसेनम् अनुगत्य, भीमसेनस्य पृष्ठतः गत्वा एव तत् पातव्यं, तस्य रुधिरं, दुःशासनस्य रुधिरं पातव्यम् अस्ति। राक्षसी सहर्षं, सन्तोषं वदति, साधु स्वामिनी, साधु, सुसंविधानो मे भर्ता त्वया कृतः, भवती सुसंविधानं कृतवती मम भर्तारं, नाम सुसंविधानः मे भर्ता त्वया कृतः इत्युक्ते उत्तमां व्यवस्थां कृतवती अस्ति मम पत्युः कृते इति, उत्तमाम् आज्ञां दत्तवती अस्ति भवती इति स्वामिनीं, हिडिम्बिनीं प्रशंसति राक्षसी। इदानीं नेपथ्ये महान् कलकलः उभौ आकर्ण्यतः, महान् कलकलः नाम महान् कोलाहलः, कोलाहलशब्दः श्रूयते नेपथ्यात्, उभौ अपि राक्षसः, राक्षसी उभौ अपि आकर्ण्यतः नाम शृणुतः, राक्षसी आकर्ण्य ससंभ्रमम्, अरे रुधिरप्रिय, किन्नु खलु एषः महान् कलकलः श्रूयते, किम् एषः महान् कोलाहलशब्दः श्रूयते इति राक्षसी पृच्छति। राक्षसः दृष्ट्वा, वसागन्धे एषः खलु दृष्टद्युम्नेन द्रोणः केशेषु आकृष्य असिपत्रेण व्यापाद्यते। एषः द्रोणः, द्रोणाचार्यः दृष्टद्युम्नेन, दृष्टद्युम्नेन केशेषु आकृष्य, केशेषु गृहीत्वा असिपत्रेण खड्गेन व्यापाद्यते मार्यते इति राक्षसः वदति. इदानीमेव द्रोणाचार्यः मार्यते इति स एव शब्दः नेपथ्यपृष्ठतः श्रूयते, नेपथ्यस्य पृष्ठतः श्रूयते. राक्षसी सहर्षं, हर्ष नाम ससन्तोषं, वदति वसागन् रुधिरप्रिय एहि वयमपि गत्वा द्रोणस्य रुधिरं पिबामः, वयमपि द्रोणाचार्यस्य रक्तं पिबामः, आगच्छतु इति. वसागन्धे ब्राह्मणशोणितं खलु एतत्, एतत् रुधिरं रक्तं, शोणितं रक्तं ब्राह्मणस्य रक्तम् अस्ति. यदा गलं प्रविशति, यदा कण्ठप्रदेशं प्रविशति, तदा दहद्दहत् प्रविशति, नाम इट् विल् कास् सम् इरिटेशन् इन् द थ्रोट् इति अर्थः. दहद्दहत् प्रविशति, किञ्चित् गले वेदनां जनयेत्. तत् किम् एतेन, किमर्थम् एतत् पातव्यम् इति राक्षसः पृच्छति. नेपथ्ये पुनः कलकलः, पुनः कोलाहलशब्दः श्रूयते. राक्षसी रुधिरप्रिय पुनरपि एषः महान् कलकलः श्रूयते, पुनः अपि महान् कलकलः, महान् कोलाहलशब्दः, कोलाहलशब्दः श्रूयते, किमिति पश्यतु इति वदति. राक्षसः नेपथ्य अभिमुखम् अवलोक्य वसागन्धे एषः खलु अश्वत्थामा आकृष्ट असिपत्रः इत एव आगच्छति. एषः अश्वत्थामा आकृष्ट असिपत्रः नाम गृहीतखड्गः, तस्य हस्ते खड्गः अस्ति, इत एव आगच्छति, अत्रैव आगच्छति. कदाचित् द्रुपदसुत्तरोषेण आवामपि व्यापादयिष्यति. तदेहि स्वामिन्या हिडिम्बादेव्या आज्ञप्तिं कुर्मः. द्रुपदसुतरोषेण, रोषः नाम कोपः, द्रुपदसुतः दृष्टद्युम्नः, दृष्टद्युम्नस्य उपरि तस्य महान् कोपः भवति इदानीं. तेन कोपेन, तस्मात् कारणात् आवामपि सः व्यापादयिष्यति, आवामपि सः मारयिष्यति. तद् एहि, तस्मात् एहि आगच्छतु स्वामिन्याः हिडिम्बादेव्याः आज्ञप्तिं कुर्मः. स्वामिन्या हिडिम्बादेव्या या आज्ञा दत्ता, ताम् आज्ञाम् इदानीं निर्वर्तयामः. अतः इतः गच्छामः इति उक्त्वा ततः निष्क्रान्तौ, एवं करवाव इति राक्षसी वदति. इति द्वावपि रङ्गमञ्चात् निष्क्रान्तौ. इति प्रवेशकः, प्रवेशकः इति पदं नाटकस्य एक टेक्निकल् टर्म् भवति. तत्र नीचपात्रयोः सम्भाषणेन नाटके विद्यमानः विषयः ज्ञायते, प्रकृतः विषयः ज्ञायते, काण्टेक्स्ट् ज्ञातुं शक्यते. तदेव प्रवेशकः इति उच्यते. द्वयोः अङ्कयोः मध्ये क्रियमाणः विषयः अयं प्रवेशकः इति.